ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் டாட் ஆர்க், தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் ஸ்பிரிச்சுவல் டிஸ்கோர்ஸ். இன் திஸ் யூ ஆர் அபவுட் டு லிசன் ஈஷா வாசியோபனிஷத், ப்ரெசன்டட் பை சுவாமி ஸ்ரீ திவ்யானந்தஜி மகாராஜ். தேங்க்யூ. ஓம் நம சிவாய.
ஓம் தத்சதிதி ஸ்ரீமத் பகவத் கீதாசு உபநிஷத்சு ப்ரஹ்ம வித்யாயாம் ஸ்ரீ கிருஷ்ணார்ஜுன சம்வாதே சாங்க்ய யோகோ நாம த்வித்யோத்யாய அத த்ருத்யோத்யாய. அர்ஜுன உவாச ஜாய மதா புத்திர் ஜனார்தன
சர்வம் கர்மணி கோரேமா வியோஜஸ்கேஷவ
நாமிஷேனேவ வாக்கேன புத்திம் மோஹயசீவ மே
தவேகம் வத நிஷ்சித்ய ஏன ஸ்ரீரோஹமாப்னுயாம்.
ஸ்ரீ பகவான் உவாச லோகேஸ்மின் த்விதா நிஷ்டா புரா ப்ரோக்தா மயா நக
ஞான யோகேன சாங்க்யானாம் கர்ம யோகேன யோகினாம்
ந கர்ம நாம நாரம்பாத் நைஷ்கர்மியம் புருஷோஷ்ருதே
ந ச சந்நியாசனாதேவ சித்திம் சமுதிகச்சதி
நைகச்சித் க்ஷணமபி சதாது நிஷ்கத்ய கர்ம க்ருத்
ஆயதேவ ச கர்ம சர்வத்ர விஜயதி
கர்மேந்திரியாணி சம்யம்ய யாஸ்தே மனசா ஸ்மரன்
இந்திரியாணி மூலாத்மா வித்யாச்சார சௌச்சரே
யஸ்மீந்திரியாணி மனசா நியம்ய ஆரபதே அர்ஜுன
கர்மேந்திரிய கர்மயோர சவிசிஷ்யதே
நியதம் குரு கர்ம த்வம் கர்ம ஜாயோய கர்மண
சரீர யாத்ராபி சதே ந ப்ரசித்யே கர்மண
யஜ்ஞார்த்தாத் கர்மணோ அந்யத்ர
லோகோயம் கர்ம பந்தன
ததர்த்தம் கர்ம கௌண்டேய முக்த சங்க சமாசர
ச யஜ்ஞா ப்ரஜா ஸ்ருஷ்ட்வா புரோவாச ப்ரஜாபதி
அனேன ப்ரசவிஷ்யதஸ்வரம்
ஸ்திஷ்ட காம துர்க்கம்
தேவான் பாவயதானேன தே தேவா பாவயந்துவ
பரஸ்பரம் பாவயந்த ஸ்ரேய பரமவாசியத
ஈஷான் போகானி ஓ தேவா தாஸ்யந்தே யஜ்ஞ பாவிதா யஜ்ஞசிஷ்டாசின சந்தோ முச்சந்தே சர்வகில் விஷை
முஞ்சதே குலம் பாபா ஏ பசந்தாத்மகாராத்
அன்னாத் பவதி பூதானி பர்ஜன்யா தண்ட சம்பவ
யஜ்ஞாத் பவதி பர்ஜன்யோ யஜ்ஞா கர்ம சமுத்பவ
கர்ம பிரம்மோத்பவம் வித்தி பிரம்மாட்சர சமுத்பவம்
தஸ்மாத் சர்வகதம் பிரம்ம நித்யம் யஜ்ஞே பிரதிஷ்டிதம்
ஏவம் பிரவர்த்தித்தம் சக்கரம் நானுவர்த்தயதீமய
ஆயு இந்திரியா ராமோ மோகம் பார்த்த சஜீவதி
தாத்மந்திரித்தஸ்ய மானவ
ஆத்மன்யேவ
ச சந்துஷ்டஸ் தஸ்ய
காரியம் ந வித்யதே
நைவ தஸ்ய
ஸ்ருதேனார்த்தோ
நாப்யதேனேவ
அஸ்ய சர்வபூதேஷு கச்சித் அர்த்தவ்யபாசய
தஸ்மாத் காரியம் கர்ம சமாசர
அசக்தோ யாசரம் கர்ம பரமாப்னோதி புருஷ
கர்மன்னைவ ஹி சம்சித்தி மாசிதா ஜனகாதய
லோக சங்கிரஹமேவாபி
சம்பஷ்யன் கர்த்துமர்ஹசி
யத்யதாச்சரதி
ஸ்ரேஷ்டஸ் தத்தவேதே
ஸ்வயம்
பிரமாணம் குருதே லோகஸ்தனுவர்த்ததே
நமே பார்த்தாசி கர்த்தவ்யம் த்ரிஷு லோகேஷு கிஞ்சன
மானவாப்தவ்யம் வர்த்தேவ ச கர்மணி
யதீயம் ந வர்த்தேயம் ஜாது கர்மண்ய தந்தித
மம வர்த்தமான வர்த்தந்தே மனுஷ்யா பார்த்த சர்வஷ
உத்தீயே யுதி மே லோகா न कुर्याम कर्म चेदहम्
संकर्षण कर्तास्याम्
सत्ता कर्मण्य विद्वांसो यथा कुर्वन्ति भारत
कुर्याद् विद्वान् तथा सत्तच् चिकीर्षुर्लोक संग्रहम्
नमो
बुद्धिवेदे जनये दज्ञानां कर्म संगिनां
सर्वकर्माणि समाचरन्
प्रकृते क्रियमाणानि पुनै कर्माणि सर्वशः
अहंकार विमूढात्मा कर्तारमिति मन्यते
तत्त्वविद्धो महाबाहो पुनः कर्म विभागयो
गुणा गुणेषु वर्तन्त इति मत्वा न सर्जते
प्रकृते गुणसम्मूढा सज्जन्ते गुणकर्मसु
तान् कृत्स्नविदो मन्दान् कृत्स्नभिन्न विचालयेत्
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा
निराशे निर्ममो भूत्वा युज्वस्व विगतत्वतः
ये मे मतमिदं नित्यम्
मनो तिष्ठन्ति मानवा
सद्धावन्तो
पुनन्सूयन्तो मुच्यन्ते
ये
तदभ्यसूयन्तो
नानुतिष्ठन्ति मे मतम्
सर्वज्ञान विमूढास्तान्
सदृशम् चेष्टते स्वस्या प्रकृते ज्ञानवानपि
प्रकृति भूतानि विग्रह किम् करिष्यति
यस्येन्द्रियस्यार्थे
रागद्वेषोऽव्यवस्थितौ
तयोर्नवशमागच्छेत् कौ ह्यस्य परिपन्तिनौ
श्रेयान् स्वधर्मगुरुणः परधर्मात्मनुसृतात्
स्वधर्मे निधनम् श्रेयः
अर्जुन उवाच
अत येन प्रयुक्तोऽयम् पापम् चरति पुरुषः श्रीभगवान् उवाच काम एष क्रोध एष रजोगुणसमुद्भव
महाशनो महापाप्मा
धूमेनाभियते वह्निर् यथा दर्शो मलेन च
कुलबेनावृतो गर्भः तथा तेनेदमावृतम्
आवृतम् ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्कुरेणानलेन च
इन्द्रियाणि मनो बुद्धिर्
तस्याधिष्ठानमुच्यते ज्ञानमावृत्यदेनम्
तस्मात्मिन्द्रियाण्यादौ नियम्य भरतर्षभ
रजयिह्येन
ज्ञानविज्ञाननाशनम्
इन्द्रियाणि पराण्याहुत् इन्द्रियेभ्यः परम् मनः
मनस्सु परा बुद्धिम् यो बुद्धिः परस्तु सः
एवम् बुद्धे परम् बुद्ध्वा संसर्गात्मानमात्मना
जये शत्रुम् महाबाहो कामरूपम् दुराशनम्
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्या अथ चतुर्थोऽध्यायः श्रीभगवान् उवाच इमम् विवस्वते योगम् नहमाव्ययम्
मधुरिक्षाकवे ब्रवीत्
एवम् परम्परा प्राप्त इमम् राजर्षयो विदुः
सकाले देह महता योगो नष्टः परन्तप
स एवायम् मया दिव्य योग प्रोक्तः पुरातनः
भक्तो जीवे सखा चेति रहस्यम् हे सदुत्तम
अर्जुन उवाच अपरम् भवतो जन्म परम् जन्म विवस्वता
कथमेतद्विजानीयाम् त्वमादौ प्रोक्तवान्
श्रीभगवान् उवाच बहूनि वेदगीतानि जन्मानि तव चार्जुन
तान्यहम् वेद सर्वाणि न त्वम् वेत्त परम् तप
अयोऽपि सन् आत्मा
भूतानामीश्वरोऽपि सन्
प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे
जन्म कर्म च मे दिव्य एवं योगे तत्त्वतः
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन
वीतरागभय क्रोध मन्मया मामुपाश्रिता
बहो ज्ञान तपसा भूता मद्भावमागता
येयता मां प्रपद्यन्ते तां सदैव व्रजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वश
यजन्त इव देवता
क्षिप्रम् हि मानुषे लोके सिद्धिर्भवति कर्मजा
चातुर्वर्ण्यम् मया सृष्टम् गणकर्म विभाजता
तस्य कर्तारमपि माम् विद्यकर्तारमव्ययम्
न माम् कर्माणि लिप्यन्ति न मे कर्म फलेष्वा
इति माम् योऽपि जानाति कर्मभिर्न समर्थ्यते
एवम् ज्ञात्वा कृतम् कर्म पुरेऽभिमुष्टिः
कुरु कर्मेव तस्मात्त्वम् पूर्वै पूर्वतरम् कृतम्
किम् कर्म किम् कर्मेति कवयो पत्र मोहिता
तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात्
कर्मणो बोद्धव्यम् बोद्धव्यम् च विकर्मणः
अकर्मणश्च बोद्धव्यम् गहना कर्मणो गति
कर्मण्य कर्मय पश्येत् कर्मणि कर्मय
स बुद्धिमान् मनुष्येषु स युक्त कृत्स्नकर्मकृत्
यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता
ज्ञानाङ्गिदग्ध कर्माणम् समाहु पण्डितम् बुधा
त्यक्त्वा कर्मकला सङ्गम् नित्यतृप्तो निराश्रय
कर्मण्यपि प्रवृत्तोऽपि नैव किञ्चित् करोति स
निराशीयचित्तात्मा त्यक्तसर्वपरिग्रह
शारीरम् केवलम् कर्म कुर्वन्नाप्नोति किल्बिषम्
यदृशालावसन्तुष्टो द्वन्द्वातीतो विमत्सरः
समसिद्धावसिद्धौ च कृत्वापि न निबध्यते
गतसङ्गस्य मुक्तस्य ज्ञानावकृष्णचेतसा
यज्ञायाचरत कर्म समग्रम् प्रविलीयते
ब्रह्मार्पणम् ब्रह्महरि ब्रह्माग्नो ब्रह्मणाहुतम्
ब्रह्मैव तेन गन्तव्यम् ब्रह्म कर्म समाधिना
देवमेवापरे यज्ञम् योगिना परिपासते
ब्रह्माग्नावपरे यज्ञम् यज्ञेनैवोपजुहति
श्रोतादीन्द्रियाणि संयमानीषु जुहति
शब्दादिविषयानन्य इन्द्रियाग्नीषु जुहति
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे
आत्मसंयमयोगात्मौ जुह्वति ज्ञानदीपिते
द्रव्ययज्ञास्तपो यज्ञ योगयज्ञास्ततापरे
स्वाध्यायेनाशिताव्रता
प्राणेपानम् ततापरे
प्राणापानगतिरुद्ध्वा प्राणायामपरायणा
अपरे निहारा प्राणम् प्राणेषु जुह्वति
सर्वे केते यज्ञविदो यज्ञक्षमितकल्मषाः
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायम् लोकोऽस्य यज्ञस्य पूतोऽन्य पुरुषत्तम
एवम् बहुविधा यज्ञा विगता ब्रह्मणो मुखे
कर्मजान् विदिता
सर्वमेवम् ज्ञात्वा
विमोक्षसे
श्रेयाम् द्रव्यमया ज्ञानयज्ञः परन्तप
सर्वम् कर्माखिलम् पार्थ ज्ञाने परिसमाप्यते
अविद्धि प्रणिपातेन परिप्रश्नेन सेवया
उपदेश्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः
यज्ञात्वा न पुनर्मोहमेवम्
यास्यसि पाण्डव
येन भूतान्यशेषेण
रक्षस्यात्मन्यतो मयि
अपि चेदसि पापेभ्यः पापकृत्तमः
सर्वम् ज्ञानकरणेनैव रुचिरन्तरिष्यसि
सैद्धान्ति समेतोऽग्निर्
भस्मसात् कुरुते अर्जुन
ज्ञानाग्नि सर्वकर्माणि भस्मसात् कुरुते तथा
नहि ज्ञानेन सदृशम् पवित्रमिह विद्यते
तत् स्वयं योग संसिद्ध कालेनात्मनि विन्दति
श्रद्धा वल्लभते ज्ञानम् तत्पर सहितेन्द्रियः
ज्ञानम् लब्ध्वा पराम् शान्ति
संशयात्मा विनश्यति
नायं लोकोऽस्ति
न परो
संशयात्मनः
योगसन्न्यस्य कर्माणाम् ज्ञानसञ्चितं न संशयम्
आत्मवत्सं न कर्माणि निबध्नन्ति धनञ्जय
ज्ञानसम्भूतम् योग मातिष्ठो तिष्ठ भारत
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीमानुसंवादे ज्ञानधर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः अर्जुन उवाच
सन्न्यासकर्मणां कृष्ण पुनर्योगं च शंसति
योगेकम् तन्मे ब्रूहि सुनिश्चितम्
श्रीभगवानुवाच सन्न्यासकर्मयोगश्च निःश्रेयसरौ
द्वयोस्तु कर्मसन्न्यासात् कर्मयोगे विशिष्यते
ध्येयसनित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति
निर्द्वन्द्वो इमाबाहो सुखम् बन्धात् प्रमुच्यते
साङ्ख्ययोगौ पृथक् बाला प्रवदन्ति न
पण्डिताः
सम्यक् गुभयोर्विन्दते फलम्
यत्साङ्ख्यैराप्यते स्थानम् तद्योगैरपि गम्यते
एकम् साङ्ख्यम् च योगम् च
सन्न्यासस्तु महाभावो दुःखमाप्तु मयोगतम्
योगयुक्तो मुनिर्ब्रह्म न क्षेनाभिगच्छति
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते
नैव किञ्चित् करोमीति युक्तो मन्येत कत्वरि
पश्यन् शृण्वन् स्पृशन् जिघ्नन् नश्नन् गच्छन् सपञ्चसन् प्रलपन् विसृजन् गृह्णन् नन्मिषन् निमिषन्नपि
ब्रह्मण्याधाय कर्माणि सङ्गम् त्यक्त्वा करोति कायेन मनसा बुद्ध्या
योगिना कर्म कुर्वन्ति सङ्गम् त्यक्त्वा
युक्तकर्म फलम् त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्
अयुक्तकामकारेण फले सक्तो निबध्यते
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखम् वशी
नैव कुर्वन्न कारयन्
न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभु
न कर्मफलस्योगम् स्वभावस्तु प्रवर्तते
नागते कस्यचित् पापम् न चैव सुकृतम् विभु
अज्ञानेनामृतम् ज्ञानम् तेन मुह्यन्ति गन्तव
ज्ञानेन कृतज्ञानम् येषाम् नाशीतमात्मनः
येषामादित्यज्ञानम् प्रकाशयति तत्परम्
तद्बुद्ध्यत्मानम् सर्वेषात्परायणा
गच्छन्त पुनरावृत्तिम् ज्ञाननिर्दोषकल्मषा
विद्या विनयसम्पन्ने ब्राह्मणे गविरस्तिनि
सुने चैव स्वपाके च पण्डिता समदर्शिना
येव येषाम् साम्ये स्थितम् मनः न प्रविशे प्रियम् प्राप्य नो द्विजे प्राप्य चाप्रियम् बाह्यस्पर्शुरात्मा विन्दत्यात्मनि यत् सुखम्
सब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते
ये संस्पर्शजा भोगा
సుకోంతరా రామస్ తథాంతర్జ్యోతిరేవయ
సయోగి బ్రహ్మ నిర్వాణం బ్రహ్మభూతోది గచ్చతి
లభంతే బ్రహ్మ నిర్వాణ నృషయ క్షీణ కల్మషా
చిన్నద్వేషాయ తాత్మాన సర్వభూతహితేరః
కామ క్రోధ యుక్తానాం యతీనాం యత చేతసాం
అవిలో బ్రహ్మ నిర్వాణం వర్తతే మిలితాత్మనః
వర్షాన్ కృత్వా బహిర్భార్యాన్
్రియమనో బుద్ధిరి మునిర్మోక్షపరాయణ ఇచ్చాభయ క్రోధో యతదా భూతానాం ఓం తత్సదితి శ్రీమద్భగవద్గీతా విద్యాయాం యోగ శాస్త్రే శ్రీకృష్ణార్జున సంవాదే కర్మ సన్యాస యోగో నామ పంచమోధ్యాయ అథ షష్ఠోధ్యాయ శ్రీ భగవాన్ వాచ అనాశితః కర్మ ఫలం
కార్యం కర్మ కరోతి
స సన్యాసీ చ యోగీ చ నిరభిన్న చాత్రియ
యం సన్యాసమితి ప్రాహు యోగం తం విద్ధి పాండవ
స
సంకల్పో
యోగీ భవతి కశ్చన
ఆరుషోమ్యయోగం కర్మ కారణముచ్యతే
యోగారుణస్య తస్యైవ సర్వసంకల్పసన్యాసి యోగారూఢస్తదోచ్యతేత్మనాత్మానం
ఆత్మానమనుసారే
ఆత్మైవాత్మనా బంధు
రాత్మైవ రిపురాత్మన పునస్తస్య
అనాత్మానస్సు శత్రువే వర్తేకాత్మైవ శత్రువః
జీవాత్మనా ప్రశాంతస్య పరమాత్మా సమాయితః
శీతోష్ణ సుఖ దుఃఖేషు తథా మానాపమానయో
జ్ఞాన విజ్ఞాన సుఖాత్మా కుటస్థో విజయేంద్రియః
యుక్త ఇత్యుచ్యతే యోగి సమరోష్టాశ్మకాంచన
దుర్మిత్రాయుదాసీన మధ్యస్థ ద్వేష్య బంధుషు
సాధుష్వపి చ పాపేషు సమబుద్ధి విశిష్యతే
యోగియుంజిత సతత మాత్మానం
ఏకాకీయత చిత్తాత్మా
నిరాశీర పరిగ్రహ స్థిరమాసనమాత్మన నాతి నీచం
ఉపాయన్నచలం
స్థిర
సంప్రేక్షనవలోకయన్
ప్రశాంతాత్మవిగతభిర్ మచ్చిత్తో
యుక్త ఆసీత మత్పర
సదాత్మానం యోగీ నియతమానస
శాంతి నిర్వాణ పరమాధిగచ్చతి
నాత్యశ్నతస్తు యోగోస్తి నచికాంతమనశ్నత నచాపి స్వప్నశీలస్య
జాగ్రతో నైవ చార్జున
యుక్తాహార విహారస్య యుక్తరేతస్య కర్మసు
యుక్త స్వప్నావబోధస్య యోగో భవతి దుఃఖః
యదా వినియతం చిత్త
నాత్మనిర్వాపతిష్ఠతే
సర్వకామేభ్యో యుక్త ఇత్యుచ్యతే తదా
యథా దీపో నివాసస్థో నైకతే శుభమాసిత
యోగినో యత చిత్తస్య యుంజతో యోగమాత్మన
యతో పరమతే చిత్తం నిరుద్ధం యోగ సేవయా
यत्र सेवात्मनात्मानम् पश्यन्नात्मनि
तुष्यति यत्र बुद्धिग्राह्य मतीन्द्रियम्
वेति यत्र न चैवायम् स्थितश्चलतिः
यं लब्ध्वा चापरं लाभम् मन्यते
यस्मिन् स्थितो न दुःखेन गुरुणापि विचार्यते
कं विद्या दुःखसंयोगा योगं योगसंयुतम्
युक्तव्यो योगो
निर्वाणचेतसा
सङ्कल्प प्रभवान् कामान् त्यक्त्वा सर्वान् शेषः
मनसैवेन्द्रियग्राहम् विलीयम्य समन्ततः
शनैरुपरमे बुद्ध्या बुद्धिगृहीतया
आत्मसंस्थम् मनः कृत्वा न किञ्चिदपि चिन्तये
यतो यतो निश्चरति
मनश्चञ्चलमस्थिरम् नियम्यैतदात्मन्येव वशम् नयेत्
शान्तमनसंयेनम् योगिनम् सुखमुत्तमम्
उपेति शान्तरजसम् ब्रह्मभूतम् कल्मषम्
इन्द्रन्येवम् सदात्मानम् योगी विगतकल्मषः
सुखेन ब्रह्म संस्पर्शम्
मत्यन्तम् सुखमश्नुते
सर्वभूतस्तमात्मानम् सर्वभूतानि चात्मने
ईशते योगयुक्तात्मा सर्वत्र समदर्शन
यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति
तस्याहम् न प्रणश्यामि स च मे न प्रणश्यति
सर्वभूतस्थितम् यो माम्
भजत्येकत्वमाश्रितः
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते
आत्मोपन्नेन सर्वत्र समम् पश्यति योगिनः
सुखम् वा यदि वा दुःखम् स योगी परमो मतः
अर्जुन उवाच योऽयम् योगस्त्वया प्रोक्तः साम्येन मधुसूदन
एतस्याहम् न पश्यामि चञ्चलत्वासि किम् स्थिराम्
चञ्चलम् ये मना कृष्ण प्रमाति बलवद्रणम्
तस्याहम् निग्रहम् मन्ये वायोरिव सुदुष्करम्
श्रीभगवान् उवाच असंशयम् महाबाहो मनो दुर्विग्रह चलम्
अभ्यासेन तु कौन्तेय वैराग्येन च क्रियते
असंशयात्मा योगो दुष्प्रापम् इति मे मतिः
वश्यात्मना दूयतता शक्यो वाक्तुं
अर्जुन उवाच
अयम् हि सर्वयोगेतो योगाश्रितमानसः
अप्राप्य योगसंसिद्धिम् काम् गतिम् कृष्ण गच्छति
छिन्नो भय विभ्रष्ट छिन्नाभ्रमिव नश्यति
अप्रतिष्ठो महाबाहो विमुडो ब्रह्म न पदि
एतन्मे संशयम् कृष्ण चेतु
तदन्यम् संशयस्यास्य चेत्तान् युपपद्यते
श्रीभगवान् उवाच
पार्थानेव नामुत्र विनाशस्तस्यमिति
नहि कल्याणकृत्कश्चित् दुर्गतिम् तात गच्छति
प्राप्य पुण्यकृताम् लोका
मुषित्वा शाश्वती समा
शुचीनाम् श्रीमताम् गेः योग भ्रष्टोऽपि जायते
अथवा योगिनामेव कुले भवति
एतद्धि दुर्लभतरम् लोके जन्म यदीदृशम्
तत्र सम्बुद्धिसंयोगम् लभते पौर्वदेशिकम्
यतते च ततो भूय संसिद्धो कुरु नन्दन
पूर्वाभ्यासेन तेनेव
जिज्ञासुरपि योगस्य शब्दब्रह्माति वर्तते
मानस्तु योगी संशुद्ध केल्विषः
अनेक
जन्म संसिद्ध
ततो याति पराम् गतिम्
तपस्विभ्योऽधिको योगी
कर्मीभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन
योगिनामपि सर्वेषाम्
मद्गतेनान्तरात्मना
श्रद्धावान् भजते यो माम् स
ओम तत्सदिति श्रीमद्भगवद्गीतासु पञ्चसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमेन नाम षष्ठोऽध्यायः श्री अथ सप्तमोऽध्यायः श्रीभगवान् उवाच